परिष्कुर्वन् मातः पशुपतिकपर्दं चरणराट् परा च मृत्पद्मं परमभणितीनां च मकुटम् भवाक्ये पतोधौ परिहरतु कामाक्षि ममता पराधीनत्वं मे परिमुषितपातो जमहिमा प्रसूनैः सम्पर्कात् अमरतरुणी कुन्तलभवैः अभीष्टानां दानात् अनिशमपि कामाक्षि नमताम् स्वसङ्गात् कङ्केली प्रसवजनकत्वेन च शिवे त्रिधा धत्ते वार्ताम् सुरभिरिति पादो गिरिसुते महामोहस्तेन व्यतिकरभयात् पालयति यो विनिक्षिप्तं स्वस्मिन् निजजनमनोरत्नमनिशम् सरागस्योद्रेकात् सततमपि कामाक्षीतरस किमेवं पदोऽसौ किसलयरुचिं चोरयति ते सदा स्वादुङ्कारं विषयलहरीशालिकणिकां समास्वाद्य शान्तं हृदयशुकपोतं जननि मे कृपाजाले पाले क्षणमहिषि कामाक्षीरभसत् गृहीत्वारुन्धितः तव पदयुगी पञ्जरपुटे धुनानं कामाक्षी स्मरणलवमात्रेण जडिम जरप्रौढिं गूढस्थिति निगमनैकुञ्जकुहरे अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिनः चिरादन्विष्यन्तः तव चरणसिद्धौषधमिदम्।